अथ कृष्ण यजुर्वेदः।
सहस्राक्षेण शतशारदेन शतायुषा हविषाः आर्षमेनम् शतं यथेमं शरदोनयातिन्द्रो विश्वस्य दुरितस्य पारम्।
अथ कृष्ण यजुर्वेदः।